सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अदन्ताङ्गेषु सिद्धतिङ् प्रत्ययानां निर्माणम् इति विषयः आरब्धः. अदन्ताङ्गेषु सिद्धतिङ् प्रत्ययाः भिन्नाः, अनदन्ताङ्गेषु सिद्धप्रत्ययाः भिन्नाः. इत्युक्ते द्वयोर्मध्ये कुत्रचित् भेदः अस्ति, सर्वत्र इति नास्ति, कुत्रचित् भेदः वर्तते. पूर्वस्मिन् वर्गे अदन्ताङ्गेषु आत्मनेपदिधातूनां लोट् लकारस्य सिद्धतिङ् प्रत्ययानां निर्माणम् इति विषयः आरब्धः आसीत्. तस्मिन् वर्गे सिद्धप्रत्ययानां निर्माणावसरे आवश्यकानि सूत्राणि अपि कानिचन सूत्राणि पठितवन्तः. तित आत्मनेपदानां टेरे, आमेतः, थासहसे, सवाभ्यां वामौ इति चत्वारि सूत्राणि अधीतानि. पूर्वस्मिन् वर्गे प्रथमपुरुषत्रयः प्रत्ययाः कथं साधनीयाः इति अधीतमस्ति. अपि च मध्यमपुरुषत्रयः प्रत्ययाः एकवचन द्विवचन बहुवचनप्रत्ययाः कथं साधनीयाः इति अपि अधीतमासीत्. अद्यतनवर्गे लोट्लकारस्य उत्तमपुरुषप्रत्ययानां विषये चर्चा क्रियते. आत्मनेपदिधातूनां प्रसङ्गे लोट्लकारसिद्धतिङ् प्रत्ययानां निर्माणावसरे विशेषतया उत्तमपुरुषसिद्धतिङ् प्रत्ययानां निर्माणावसरे आवश्यकानि नूतनानि सूत्राणि अद्य पश्येम. लोटि प्रसङ्गे आडुत्तमस्य पिच्च इति सूत्रं पूर्वम् अधीतमेव. पुनस्मरणत्वेन आडुत्तमस्य पिच्च इति सूत्रात् आरभ्य पठेम. आत्मनेपदिधातूनां कृते मूलप्रत्ययाः ता, आतां, झ, था, सा, थां, ध्वम्, इड् वहि, महिं एते मूल तिङ् प्रत्ययाः सन्ति इति वयं जानीमः. आत्मनेपदिधातूनां कृते सिद्धप्रत्ययानां निर्माणावसरे लकारम् आश्रित्य मूलप्रत्ययतः भिन्न आदेशाः भूत्वा सिद्धप्रत्ययस्य निर्माणं भवति. लोट् लकारप्रसङ्गे सिद्धप्रत्ययाः एवं सन्ति खलु, ताम्, इताम्, अन्तां, स्व, इथां, ध्वम्, ऐ, आवहै, आमहै इति सिद्धतिङ् प्रत्ययाः लोट्लकारे सन्ति. उत्तमपुरुषसिद्धप्रत्ययाः ऐ, आवहै, आमहै. एकवारं रूपाणि स्मारयामि. वन्द् धातुः अस्ति चेत् वन्द् धातोः लोट्लकाररूपाणि एवं सन्ति, वन्दतां, वन्देतां, वन्दन्तां, वन्दस्व, वन्देत्थां, वन्दध्वं, वन्दै, वन्दावहै, वन्दामहै. एवं रूपाणि भवन्ति खलु, वन्दै, वन्दावहै, वन्दामहै इति उत्तमपुरुषरूपाणि सन्ति. तत्र वन्द इति अङ्गमस्ति. वन्द् धातुः भुवादिगणे अस्ति इति कारणतः शपायाति इत्यतः वन्द इति अङ्गमस्ति सिद्धप्रत्ययस्य कृते. तत्र उत्तमपुरुषरूपाणि वन्दै, वन्दावहै, वन्दामहै. अपि च पूर्वस्मिन् वर्गे टित आत्मनेपदानां तेरे प्रसङ्गे अपि पठितं. तत् सूत्रं सामान्यसूत्रं. सामान्यसूत्रं प्रबाध्य अपवादसूत्रेण कुत्रचित् कार्यं भवति. उदाहरणार्थं मध्यमपुरुषे एकवचन वन्दस्व इत्यत्र टित आत्मनेपदानां टेरे इति सामान्यसूत्रं प्रबाध्य थासहसे इति सूत्रेण कार्यं भवति. अपवादसूत्रेण अपवादबलेन कार्यं भवति. अपि च थासहसे इति सूत्रस्य कृते अपि तत्र अपवादसूत्रमस्ति. सवाभ्यां वामौ इति सूत्रमस्ति. टित आत्मनेपदानां टेरे इति सूत्रस्य प्रसक्तिः सर्वत्र अस्ति. तत् सूत्रम् आत्मनेपदिधातूनां कृते एव कार्यं करोति. तदर्थमेव तस्मिन् सूत्रे टित आत्मनेपदानां तेरे इति उक्तमस्ति. तत्सूत्रम् आत्मनेपदी प्रत्ययानां कृते एव कार्यं करोति, न तु परस्मैपदी प्रत्ययानां विषये. टित्सु लकारेषु एव तस्य कार्यम् अस्ति. आत्मनेपदप्रत्ययानाम् अन्ते स्थितस्य टि भागस्य स्थाने एकारादेशः भवति इति तत्सूत्रं वदति. तस्य प्रसक्तिः सर्वत्र अस्ति, किन्तु तत्सूत्रं सामान्यसूत्रमस्ति इत्यतः तत् सूत्रं प्रबाध्य अपवादसूत्रेण कुत्रचित् कार्यं भवति. अपि च आमेतः इति सूत्रमपि पठितमस्ति. आमेतः इति सूत्रं कुत्र कार्यं करोति? प्रथमसोपाने यत्र यत्र टित आत्मनेपदानां टेरे सूत्रेण प्रथमसोपाने एकारादेशः भवति, तत्र तत्र एकारस्य स्थाने आम् आदेशः भवति. इत्युक्ते अस्य सूत्रस्य कार्यक्षेत्रम् एकारस्य स्थाने आम् आदेशः इति अस्ति. एतः आम् इति अर्थः अस्ति. सवाभ्यां वामौ इति सूत्रमपि पठितं. सवाभ्याम् इति पञ्चम्यन्तम् अस्ति. इत्युक्ते प्रत्यये सकारोत्तरवर्ती एकारस्य स्थाने वा आदेशः, अपि च प्रत्यये यत्र यत्र वकारः अस्ति तत्र वकारोत्तरवर्ति एकारः यत्र यत्र अस्ति तत्र अम् आदेशः. इत्युक्ते सवाभ्यां वामौ इति सूत्रेण कार्यद्वयम् उक्तमस्ति. अस्य सूत्रस्य कार्यं मध्यमपुरुष एकवचने, मध्यमपुरुष बहुवचने भवति. अपि च अस्य सूत्रस्य कार्यं यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रस्य साहाय्येन भवति. अपि च आतोनितः इति सूत्रं पूर्वं पठितम्. आतोनितः इति सूत्रं सार्वधातुकनित् प्रत्ययेषु एव भवति. इत्युक्ते तत्र नितः इति पदस्य आवश्यकता अस्ति. नितः इति पदं न योजितं चेत् तस्य सूत्रस्य कार्यं सर्वत्र भवति चेत् अनिष्टरूपापत्तिः भवति. इत्युक्ते नितः इति पदं नास्ति चेत् सर्वेषां प्रत्ययानां प्रसङ्गे इय आदेशः भवति स्म, तेन अनिष्टरूपं प्राप्नुमः. तथा मा भवतु इति आशयः अस्ति. प्रत्ययस्य इष्टरूपसिद्ध्यर्थम्, इष्टरूपप्रत्ययस्य निर्माणार्थं नितः इति पदं तस्मिन् सूत्रे प्रयुक्तमस्ति. नितः इति पदं नास्ति चेत् उत्तमपुरुषत्रयाणां प्रत्ययानां प्रसङ्गे अपि इय आदेशः भवति. तदा भवति चेत् अनिष्टरूपं प्राप्नुमः. अद्यतनविषयः तु उत्तमपुरुषप्रत्ययानां निर्माणं, सिद्धतिङ्प्रत्ययानां निर्माणम्. अतः केवलं तं भागं स्वीकृत्य पठनीयम्. इदानीं करपत्रं पश्यन्तु. उपरितने भागे नियमाः उक्ताः. नियमान् अनुसृत्य कार्यं किं भवति इति पठित्वा सूत्राणि अपि पठामः. उत्तमपुरुष एकारस्य स्थाने ऐकारादेशः भवति, तस्मात् आरभ्य पठनीयम्. मनीषा भगिनी, भवती आरम्भं करोतु.
उत्तमपुरुषस्य एकारस्य स्थाने ऐकारादेशः भवति, तृतीयः बिन्दुः अस्ति. उत्तमपुरुषस्य एकारस्य स्थाने ऐकारादेशः भवति. लोट् चतुर्थः, लोट् लकारस्य उत्तमपुरुषस्य आणागमः भवति इति तु पूर्वमेव उक्तम्. परस्मैपदस्य लोटि उक्तम्, आत्मनेपदी अपि अस्य प्रसक्तिः. अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्त्वं स्यात् इत्यस्य नियमस्य प्रसक्तिः भवति. तित्सु अपि, मित्सु अपि अङ्गम् अदन्तम् अस्ति चेत् उत्तमपुरुषस्य कृते अस्ति. तर्हि उत्तमपुरुषस्य एकारस्य स्थाने ऐकारादेशः भवति. उत्तमपुरुषस्य यत्र इड् इति अस्ति, इड् इड् इति प्रथम मध्यम उत्तमपुरुष एकवचनस्य अस्ति रूपं. मूलतिङ् प्रत्ययः तत्र इतसंज्ञा भूत्वा इ इति अवशिष्यते. तर्हि अत्र यदि तीत् आत्मनेपदानां तेरे पश्यामः चेत् अचोन्त्यादिति इत्यनेन इ इति एव टि भागः इति अद्यन्तवदे कस्मिन् इति सूत्रं वदति. इ इति एव टि भागः, तस्य स्थाने अतीत आत्मने तित आत्मनेपदानां तेरे इति सूत्रेण एकारः भवति. तस्य एकारस्य स्थाने आमेतः इति सूत्रेण आम् आदेशः भवति. आम् आदेशः भवितुम् अर्हति, प्रसक्तिः अस्ति, प्राप्तिः नास्ति.
उत्तमम्. एकारस्य स्थाने ऐकारादेशः भवति इति उक्तमस्ति. एकारस्य स्थाने आमेतः इति सूत्रेण आम् आदेशः भवति स्म, किन्तु तथा न भवति. तत् सूत्रं प्रबाध्य, आमेतः इति सूत्रं प्रबाध्य ऐकारादेशः भवति. अस्मिन् सन्दर्भे आमेतः सूत्रमायाति, एत ऐ इति सूत्रमपि आयाति. द्वयोर्मध्ये बलाबलचिन्तनं करणीयम्. एत ऐ इति सूत्रम् अपवादसूत्रमस्ति. अपवादबलेन एत ऐ इति सूत्रेण कार्यं भवति. अग्रिमबिन्दोः प्रसङ्गे वदतु.
तर्हि अत्र तेन सूत्रेण अत्र आं प्रबाद्य ऐ आदेशः भवति. ऐ इति ऐ उत्तमपुरुषस्य अडागमः भवति आडुत्तमस्य पिच्च इत्ये सूत्रेण. तर्हि आट् इति आगमः भवति, अनुबन्धलोपानन्तरम् आय् एव अवशिष्यते. आट् इति आगम टित् अस्ति, तेन अद्यन्तो अद्यन्त किमस्ति अद्यन्तौ टकितौ इति सूत्रेण पूर्वम् आयाति. तर्हि आ योगः ऐ इति इदानीम् आं प्रबाद्य ऐ आयाति. तर्हि अत्र अहं चिन्तयामि अत्र आ इति तु आगमः अस्ति, तर्हि पदान्ते तु नास्ति, अत्र वृद्धिरेचि अस्ति डैरेक्ट्.
अत्र आट् आगमः इति उक्तवती खलु आट् आगमात् परे अचुवर्णः अस्ति चेत् आट् आगमात् परे अचुवर्णः अस्ति चेत् आटश्च इति सूत्रेण वृद्धिसंज्ञकवर्णादेशः भवति अत्र आडुत्तमस्य पिच्च इति सूत्रेण आड् आगमः भवति आट् आगमस्य अनन्तरं तस्य कार्यस्य अनन्तरं तत्र अचुवर्णः परः अस्ति चेत् वृद्धिसन्धिं प्रबाध्य आटश्च इति सूत्रेण कार्यं भवति तदपि वर्णनिमित्तिकं कार्यमेव न तु अङ्गकार्यं तस्मिन् प्रसङ्गे अग्रे लिखितम् अस्ति पठामः अत्र आडुत्तमस्य पिच्च प्रसङ्गे किं वक्तव्यं चतुर्थबिन्दोः प्रसङ्गे
चतुर्थबिन्दोः प्रसङ्गे पठामि वा चतुर्थबिन्दु पठामि
पठतु
तर्हि अत्र तर्हि आयोगः ऐ ऐ इति भवति चतुर्थः बिन्दु लोट् लकारस्य उत्तमपुरुषस्य अडागमः भवति तु पूर्वमेव उक्तम् इति पूर्वमेव यत् जातं यत् लट् लकार उत्तमपुरुषस्य कृते अडागमः भवति तत्र परस्मैपदी अपि भवति तेन पूर्वमेव उक्तम् इति अस्ति परस्मैपदस्य लोटि उक्तम् आत्मनेपदी अपि अस्य प्रसक्तिः तर्हि आत्मनेपदी तिङ्प्रत्ययानां कृते अपि अत्र अडागमः भवति लोट् लकारस्य उत्तमपुरुषस्य कृते त्रयाणां वचनानां कृते एव अत्र भवति
आडुत्तमस्य पिच्च इति सूत्रं पठतु इदानीम्
आडुत्तमस्य पिच्च तृतीयपाद तृतीय अध्यायस्य चतुर्थपादस्य द्वानवतितमं सूत्रं लोट् लकारस्य लस्य स्थाने यः उत्तमपुरुषः प्रत्ययः भवति तस्य आट् आगमौ भवति अपि च तस्य पित्वं भवति आद्यन्तौ टकितौ इत्यनेन आट् आगमः प्रत्ययात् प्राक् आयाति आट् प्रथमान्तम् उत्तमस्य षष्ठ्यन्तं पित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रं लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य उत्तमस्य आट् पित् च
सूत्रसङ्ख्याम् एकवारं वदतु
तृतीय अध्यायस्य चतुर्थपादस्य द्वानवतितमं सूत्रम्
द्विनवतितमं वा द्वानवतितं वा
द्वयमपि साधु अस्ति
द्वानवति द्विनवति
द्वितमम्
अत्र केवलम् अहं चिन्तयामि चत्वारिंशत् पर्यन्तं तत्र भेदः अस्ति अग्रे नास्ति
उत्तमम् अस्मिन् प्रसङ्गे वदतु
तर्हि लोट् लकारस्य लस्य स्थाने उत्तमपुरुषस्य यः प्रत्ययः भवति इदानीं लोट् लकारस्य ईड् वहि महिङ् इति उत्तमपुरुषस्य प्रथ एकवचन द्विवचन बहुवचनस्य प्रत्ययाः सन्ति तत्र तत्र तस्य त्रयोः त्रयाणां प्रत्ययाणां कृते अत्र आट् इति आगमः भवति आट् इति आगमः भवति तथा च अत्र तेषां कृते पित्वमपि भवति तर्हि एतत् सूत्रं विधिसूत्रमपि अस्ति तथा च आतिदेशसूत्रमपि अस्ति
किमर्थम् अतिदेशसूत्रम्
इदानीम् इड् वहि महिङ् इति प्रत्ययाः अपित् सर्वाः अपित् सन्ति किन्तु आडुत्तमस्य पिच्च इति सूत्रेण अत्र तेषां कृते इदानीं पित्वं भवति तेषां स्वभावः अपित् सन्ति किन्तु इदानीम् आडुत्तमस्य पिच्च इत्यनेन तेषां स्वभावमध्ये परिवर्तनं भवति यत् ते इदानीं पिताः सन्ति
उत्तमम् इत्युक्ते इड् वहि महिम् इति त्रयः प्रत्ययाः मूले वस्तुतः अपितः सन्ति अनेन सूत्रेण मूलप्रत्ययस्य स्वभावपरिवर्तनं भवति अपि च इदं सूत्रम् उत्तमपुरुषप्रत्ययानां प्रसङ्गे एव उत्तमपुरुषे त्रिषु स्थलेषु एव अनेन सूत्रेण पित्वम् अध्यारोपितं भवति अनुवृत्तिसहितसूत्रं पश्यामश्चेत् उत्तमस्य इति लिखितम् अस्ति उत्तमपुरुष एकवचन द्विवचन बहुवचनप्रत्ययानां प्रसङ्गे एव अस्य सूत्रस्य कार्यम् अस्ति वदतु
तैः पित्वं भवति तर्हि आट् इति आगमः टित् अस्ति तेन आद्यन्तौ टकितौ इत्यनेन प्रत्ययः अस्ति तस्य तस्मात् पूर्वम् आयाति अनन्तरम् अत्र कुतः अस्य अनुवृत्तिः अस्ति तत् लिखितमस्ति तर्हि अनुवृत्तिसूत्रमस्ति यत् उत्तमपुरुषस्य प्रत्ययानां कृते आट् इति आगमः भवति लोट् लकारे लस्य स्थाने लोट् लकारे किं वदामः लकारे लकारस्य तर्हि तत् अन्यत् अस्ति तेषां पित्वम् अपि भवति
बहु सम्यक् भगिनी. परस्मैपदप्रत्ययानां प्रसङ्गे अपि अस्य सूत्रस्य कार्यमस्ति. तदर्थमेव तत्र आनि आव आम इति सिद्धप्रत्ययानां निर्माणं कृतवन्तः. उदाहरणार्थं क्रू धातुं स्वीकुर्मः चेत् करवाणि, करवाव, करवाम इति रूपाणि साधितवन्तः. आद्यन्तौ टकितौ प्रसङ्गे किञ्चित् वदतु.
आद्यन्तौ टकितौ इति परिभाषासूत्रमस्ति.
टित् आगमाः कुत्र आयान्ति? टित् आगमाः कुत्र आयान्ति?
टित् आगमः यस्य आगमः अस्ति तेषां किं वदामः तस्मात् पुरतः पूर्वम् आयाति.
आदौ आयाति. कित् आगमः कुत्र आयान्ति?
कित् आगमः यस्य अस्ति तस्य अनन्तरम् आयाति.
कित् आगमः आगमिनः अन्ते आयान्ति. मित् आगमः कुत्र आयान्ति?
मित् आगमः मिदचोन्त्यात् परः इति सूत्रेण यः अच् किं वदामः शब्दे अच् वर्णः अस्ति अन्तिम अच् तस्य अनन्तरम् आयाति.
उत्तमं. लुङ् लङ् लृङ्क्षु अडुदात्तः इत्यस्मिन् सूत्रे कीदृश आगमः अस्ति?
लुङ् लङ् लृङ्क्ष् ष्वडुदात्तः अत्र अट् अट् इति आगमः अस्ति. टित् आगमः अस्ति. टित् आगमः अस्ति.
अड् आगमः भवति. अभवत् इत्यस्मिन् तत्र लङ्लकाररूपम् अस्ति. अभवत् इत्यत्र अट् आगमः भवति. किन्तु अत्र आडुत्तमस्य पिच इत्यत्र आड् आगमः अस्ति खलु?
अट् आगमः अस्ति.
आट् इति टकारः इति संज्ञकः. टित्वात् स्थानिनः आदौ आयाति. अयम् आगमः अस्ति न तु आदेशः. अयम् आगमः टित्वस्य कारणेन स्थानिनः आदौ आयाति. अपि च अत्र पिच् इति उक्तमस्ति. पित्वस्य प्रयोजनं किम् अस्ति? पित्वम् इति किमर्थम्
पित्वस्य इति भवति चेत् तत्र अङ्गस्य गुणकार्यं भवति.
उत्तमम्. उदाहरणार्थं भुवादिगणे इगन्तधातुषु इगुपधधातुषु शपं निमित्तीकृत्य गुणकार्यं भवति. धातुविकरणयोः मेलनेन अङ्गं सिद्ध्यति. किन्तु कुत्रचित् सिद्धतिङ्प्रत्ययं निमित्तीकृत्यापि सिद्धतिङ्प्रत्ययस्य पित्वकारणेन अपि इत्युक्ते सिद्धतिङ्प्रत्ययस्य पित्वात् अपि कुत्रचित् अङ्गे गुणकार्यं भवति. तादृशं लक्षणं तनादिगणे द्रष्टुं शक्नुमः. तनादिकृण्भ्यः उः इति सूत्रमस्ति खलु. तेन ऊ इति विकरणप्रत्ययं निमित्तीकृत्य एकवारं गुणकार्यं भवति तनादिगणीयधातुषु. उदाहरणार्थं तन् धातोः प्रसङ्गे, क्रु धातोः प्रसङ्गे तत्र ऊ विकरणप्रत्ययं निमित्तीकृत्य प्रथमवारं धातुरूपी अङ्गे गुणकार्यं भवति. उत्तमपुरुषे आत्मनेपदी धातुः अस्ति चेत् इत्युक्ते क्रु धातुः उभयपदी खलु. करोति कुरुते इति रूपद्वयम् अस्ति क्रु धातोः. उत्तमपुरुषरूपेषु करवै, करवावहै, करवामहै इति रूपाणि सन्ति. आत्मनेपदी उत्तमपुरुषरूपेषु क्रु धातोः रूपेषु उत्तमपुरुषरूपेषु प्रत्ययस्य पित्वम् आश्रित्य तत्र गुणकार्यं द्रष्टुं शक्नुमः. तदर्थमेव उत्तमपुरुषरूपेषु करवै, करवावहै, करवामहै इति रूपेषु तत्र सिद्धप्रत्ययं निमित्तीकृत्य सिद्धप्रत्ययस्य पित्वं निमित्तीकृत्य तत्र द्वितीयवारं गुणकार्यं द्रष्टुं शक्नुमः. तनवै, तनवावहै, तनवामहै. आत्मनेपदिप्रत्ययाः इड् वहि महिङ् इति प्रत्ययाः मूले तु वस्तुतः तु अपितः सन्ति. किन्तु आडुत्तमस्य पिच्च इति सूत्रेण पित्वम् अध्यारोपितम् इत्यतः तादृशप्रत्ययं निमित्तीकृत्य तत्र गुणकार्यं भवितुं शक्नोति. प्रत्ययस्य पित्वमाश्रित्य गुणकार्यं सिद्ध्यति. अपि च अस्मिन् सूत्रे उत्तमस्य इति न उक्तं चेत् किं भवति?
आट् उत्तमस्य यदि वयं निष्कासयामः तर्हि आट् पिच्च इति भवति. तर्हि अस्य अर्थः भवति सर्वत्र उत्तमस्य कृते न सर्वे प्रथमपुरुष, मध्यमपुरुष एषां कृते अपि अत्र भवितुम् अर्हति आट् आगमः.
तथा मा भवतु इति अत्र आशयः. एवं सर्वत्र तस्य कार्यं भवति चेत् इष्टरूपसिद्धिः न भवति. इत्यतः उत्तमस्य इति पदम् उक्तमस्ति. उत्तमस्य इति पदस्य महत् प्राधान्यमस्ति. अग्रे सरेम. इदानीं नीलं भगिनी भवती अग्रिमबिन्दुं स्वीकृत्य पठति वा? अधोभागे नियमान् अनुसृत्य कार्यम् एवम् अस्ति इति लिखितमस्ति.
आचार्य, पञ्चमबिन्दुः अवशिष्टः अस्ति.
पञ्चमबिन्दोः प्रसङ्गे भवती वदतु नीलं भगिनी.
पञ्चमबिन्दुः अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात् इति अस्य नियमस्य प्रसक्तिः भवतु टित्सु अपि नित्सु अपि अङ्गम् अदन्तम् अस्ति चेत्. अदन्तात् अङ्गात् परस्य आकारस्य. सो यदि अस्माकं अङ्गम् अदन्तम् अस्ति चेत् तस्य परस्य यदि प्रत्ययस्य आकारः अस्ति चेत् तस्य स्थाने इय इति आदेशः भवति. पूर्वे वयं दृष्टवन्तः तत्र सूत्रमस्ति हि आतोनितः. सो तेन सूत्रेण अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात्. एतस्य सूत्रस्य प्रसक्ति टित्सु अपि अस्ति णित्सु अपि अस्ति. अङ्गम् अदन्तम् अस्ति चेदेव कार्यं भवति.
उत्तमपुरुषप्रत्ययानां प्रसङ्गे अस्य प्रसक्तिः किमर्थं नास्ति? लोटि उत्तमपुरुषप्रत्ययानां प्रसङ्गे
इत्युक्ते तत्र यः आड् उत्तमस्य पिच् इति सूत्रेण पित्वस्य न केवलं तत्र गुणकार्यं भवति प्रत्ययनिमित्ते कृत्य, अपि च इदानीम् उत्तमपुरुषे ये प्रत्ययाः तेषां तत्र णित्वं नास्ति इदानीम्. अतः तत्र एतत् सूत्रस्य प्रसक्तिः न भवति. यद्यपि तत्र आडागमः भवति तथापि तत्र इय इति आदेशः न भवति. किमर्थं चेत् सूत्रे लिखितं णित् सार्वधातुकस्य आकाररूपी अवयवस्य एव तत्र इय इति आदेशः. सो इदानीं पिच्च इत्यनेन तत्र द्वितीयप्रयोजनम् अस्ति पित्वस्य.
नियमान् अनुसृत्य कार्यम् एवं भवति इत्यत्र इड् इति लिखितम् अस्ति, तस्मात् आरभ्य पठतु.
इड् ड इत्यस्य इत् संज्ञालोपः च अत्र इट् इट् भवेत्. इट्
टकारः वक्तव्यः.
अपि च तत्र तस्य लोपः भवति हलन्त्यम् इति सूत्रेण. इ इति टि भागः, तस्य स्थाने एकारः, एकारस्य स्थाने आम् आदेशः, आम् प्रबाद्य ऐ आदेशः. ऐ उत्तमपुरुषस्य आडागमः, आयुग ऐ ऐ इत्येव लोटः प्रत्ययः निष्पन्नः. अस्तु, प्रथमे अत्र मूलप्रत्ययः अस्ति इट्, तत्र इ एव अवशिष्यते. अतः लोट् लकारः टित् लकारः अस्ति. टित आत्मनेपदानां टेरे इत्यनेन तत्र टि भागस्य तत्र एकारादेशः भवति. अनन्तरं तत्र एकारस्य स्थाने तत्र आम् आदेशः भवति, आमेतः इति सूत्रेण
भवति वा
न? तस्य कृते अपवाद सूत्रमस्ति, एतः ऐ लोट् लस्य उत्तमस्य एतः ऐ
उत्तम. आमादेशप्राप्तिः न भवति, आमादेशं प्रबाध्य इत्युक्ते आमेतः इति सूत्रं बाधित्वा एत ऐ सूत्रस्य कार्यं भवति. किन्तु अत्र प्राप्तिः इति लिखितमस्ति, प्राप्तिः भवति स्म,
प्रसक्तिः
प्रसक्तिः इति वदतु.
अतः तत्र एतः ऐ इति सूत्रेण तत्र आम् प्रबाद्य ऐ ऐकारः आदेशः भवति. अनन्तरं तत्र आयोग ऐ अस्ति. सो इकारस्य स्थाने प्रथमे तत्र एकारादेशः, एकारस्य स्थाने तत्र ऐकारादेशः. अनन्तरं तत्र आडागमः अपि भवति, अपि च तत्र इदानीं तत्र सन्धिकार्यमस्ति, परन्तु अत्र आटश्च इति सूत्रमस्ति. आटश्च इत्यनेन पूर्वपरयोः तत्र वृद्धि आदेशः भवति. सो आट् आगमस्य अनन्तरम् अचि परे, आट् अचि परे तत्र पूर्वपरयोः वृद्धिः भवति. अतः तत्र वृद्धिवर्णः एव तिष्ठति.
उत्तम. अत्र आमेतः इति सूत्रं प्रबाध्य एत ऐ इति सूत्रेण ऐकारादेशः भवति इति पठितवती. एत ऐ इति सूत्रस्य प्रसङ्गे पठतु अधोभागे.
एतः ऐ एत ऐ तृतीयाध्याये चतुर्थपादे त्रिनवतितमं सूत्रं. लोट् लकारस्य उत्तमपुरुषस्य एकारस्य स्थाने ऐकारादेशो भवति, आदेशः भवति. एतः षष्ठ्यन्तम् ए लुप्त प्रथमान्तं द्विपदमिदं सूत्रम्. आमेतः इत्यस्य अपवादः लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः. आड् उत्तमस्य पिच् इत्यस्मात् उत्तमस्य इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहित सूत्रम् अस्ति. लोटः लस्य उत्तमस्य एतः ऐ. अत्र लोट् लकारस्य प्रसङ्गे लस्य इत्यनेन लकारः कीदृशलकारः? लोट् लकार, लोट् इति लकारस्य लकारः. तस्य उत्तमपुरुषस्य एकारस्य स्थाने, अत्र षष्ठी अस्ति, स्थाने ऐकारादेशः भवति. ऐकारः इति प्रथमान्तम् अस्ति, लुप्त प्रथमान्तम् अस्ति, अतः अत्र इति आदेशः अस्ति. स्थानीवर्णः अस्ति चेत् आदेशः एव भवति. सो एकारस्य स्थाने ऐकारः इति आदेशः, केवलम् उत्तमस्य एव.
एतः इति षष्ट्यन्तमस्ति, तत्र विसर्गलोपः भवति, एत इति रूपं सिद्ध्यति, ऐ इति लुप्तप्रधान्तं पदम्. इत्युक्ते तस्मात् परं प्रथमाविभक्तिः आसीत्, किन्तु प्रथमाविभक्तेः लोपः जातः, किन्तु तत्र प्रथमाविभक्तिः आसीत् इति मन्तव्यं. लुप्तप्रथमान्तं पदम् आमेतः इति सूत्रेण किं कार्यं भवति?
आमेतः इति सूत्रेण तत्रापि एतः इति षष्ठ्यन्तमस्ति. सो एतः आम्, सो एतः इत्युक्ते एतः आम्, एकारस्य स्था एकारस्य आम् आम् आदेशः अस्ति वा? आम् स्थाने अस्ति चेत् आदेशः, एकारस्य आम् आदेशः भवति.
एकारः अस्ति चेत् तत्र ये स्थाने आम् आदेशः भवति इति आमेतः सूत्रेण उक्तमस्ति, ये स्थाने ऐ आदेशः भवति इति एत ऐ इति सूत्रेण उक्तमस्ति. इदानीं किं करणीयम्? अत्र समस्या जायते. इत्युक्ते एकस्मिन् सन्दर्भे, एकस्मिन् समये, एकस्मिन् स्थले सूत्रद्वयम् आमेतः एत ऐ इति सूत्रद्वयम् आगत्य कार्यं कर्तुम् उद्युक्तं भवति. अत्र ये स्थाने आम् आदेशः भवति वा, ये स्थाने ऐ आदेशः भवति वा?
आम्, इत्युक्ते अत्र उत्सर्ग अपवादनीयमः अस्ति. इत्युक्ते आमेतः इत्यस्य कृते तु अन्यत्र अवकाशः अस्ति, परन्तु एतः ऐ इत्यस्य कृते केवलम् उत्तमस्य एव एतः ऐ भवति. अतः यदि अत्र कार्यं न भवति चेत् तत्र एतत् सूत्रं निरवकाशः भवति. अतः उत्सर्ग अपवाद अत्र सम्बन्धः अस्ति द्वयोः सूत्रयोः.
उत्तमम्. उत्सर्ग अपवादसम्बन्धः अस्ति अत्र. एत ऐ इति सूत्रस्य अपवादबलेन कार्यं भवति. अस्मिन् सूत्रे अपि अनुवृत्तसहितसूत्रं पश्यामश्चेत् उत्तमस्य इति पदम् अनुवृत्तं भवति. लोटः लस्य उत्तमस्य एतः इति लिखितमस्ति. उत्तमस्य इति पदं नास्ति चेत् का समस्या?
उत्तमस्य इत्युक्ते लोट् लकारे सर्वत्र, परस्मैपदे अपि, आत्मने पदे अपि, अपि च तत्र प्रथमपुरुषे, मध्यमपुरुषे, उत्तमपुरुषे तत्र भवेत् एतत् आदेशः. परन्तु केवलम् एतत् सूत्रम् उत्तमस्य कृते एव निर्मितम्.
उत्तमम्. इत्युक्ते उत्तमस्य इति पदस्य महत् प्राधान्यमस्ति, महत्त्वम् अस्ति. इत्युक्ते उत्तमस्य इति पदं नास्ति चेत् अस्य सूत्रस्य कार्यं सर्वत्र भवति स्म, तथा मा भवतु. सर्वत्र अस्य सूत्रस्य प्रसक्तिः, प्राप्तिः अस्ति चेत् अनिष्टरूपं प्राप्नुमः. अतः उत्तमस्य इति पदस्य महत् प्राधान्यमस्ति. अस्य सूत्रस्य प्राप्तिः उत्तमपुरुषप्रत्ययानां प्रसङ्गे एव अस्ति. अग्रिमबिन्दुं पठतु उपरि.
महोदय, मम एकः प्रश्नः अस्ति अत्र.
वदतु.
अत्र लोटः लस्य उत्तमस्य एतः ऐ इति लिखितमस्ति, तेन कारणेन अपवादत्वं स्वीकरणीयम्, स्वीकरणस्य स्वीकरणीय आवश्यकं वा? अत्र लोटः लस्य उत्तमस्य एतः ऐ इति लिखितमस्ति, अतः एत ऐ इति सूत्रम् उत्तमपुरुष लोट्लकारस्य एव प्राप्तिः अस्ति, अतः आमेतः इत्यस्य सूत्रस्य अपेक्षया एम् एत ऐ इति अपवादत्वेन अत्र भवतु इति वक्तुम् आवश्यकमस्ति वा?
एकारस्य स्थाने आम् आदेशः इति आमेतः सूत्रेण उक्तमस्ति, किन्तु अस्मिन् सूत्रे उत्तमस्य इति स्पष्टतया उक्तम्. आमेतः इत्यस्य अपवादः इति
अष्टाध्यायीग्रन्थे तत्र सूत्राणां शैली कथम् अस्ति इत्युक्ते प्रथमे सामान्यनियमः, अनन्तरम् एव विशेषः. सो अत्र विशेषनियमः अस्ति, उत्तमपुरुषस्य कृते एव नियमः अस्ति. अतः तत्र अपवाद, पूर्वे यत् आमेतः अस्ति तत् सामान्यनियमः. लोट् लोटः यत्र तत्र किमपि न लिखितम्, आत्मनेपदी वा परस्मैपदी वा, तत् केवलं लिखितं लोटः लस्य एतः आम्. सो परन्तु तत्र ये परस्वैपदी प्रत्यय तत्र तु एकारः कुत्रापि नास्ति, अतः तत्र कार्यं न भवति. परन्तु आत्मनेपदी प्रत्ययेषु एकारः दृश्यते, अतः तत्र सर्वत्र कार्यं भवेत् परन्तु न भवति. किमर्थं चेत् तत्र अपवादसूत्रम् आयाति एतः ऐ उत्तमस्य, अतः सामान्य अनन्तरं विशेषः. एतत् विशिष्टनियमस्ति, अतः अपवादसूत्रम् अस्ति.
साधु इति चिन्तयामि. महोदय भवान् पठतु उपरि नियमान् अनुसृत्य कार्यम् एवं भवति इति लिखितमस्ति वहि प्रसङ्गे भवान् पठतु पद्मनाभन् महोदय
वहि हि इति टी भागः तस्य स्थाने एकारः अतः वहे इति भवति एकारस्य स्थाने ऐकारः आदेशः वहै उत्तमपुरुषस्य आडागमः आयोगः वहै आवहै इति लोट् प्रत्ययः निष्पन्नः अत्र वहि इत्यस्य टी टी भागः अस्ति इकारः इकारः अत्र आत्मनेपदानां तेर इति सूत्रेण अत्र एकारः भवति वहे इति भवति अनन्तरं एतः ऐ इति सूत्रेण एकारस्य स्थाने ऐ आदेशः भवति अनन्तरम् आड् उत्तमस्य पिच्छ पिच्छ इति सूत्रेण अत्र आडागमः भवति अतः आडागमः टित् आदि आद्यन्तौ टिकितौ इति सूत्रेण अत्र प्रत्ययात् प्राक् आयाति आयोगः वहै आवहै इति लूट् प्रत्ययः निष्पन्नः
इदानीं भवान् पचावहै इति रूपं साधयतु पच इति अङ्गमस्ति पचयोगः आवहै रूपं साधनीयं पचावहै इति उत्तमपुरुषद्विवचनरूपम् अस्ति पच् धातुः उभयपदी धातुः किन्तु आत्मनेपदीरूपं साधनीयम् उत्तमपुरुष आत्मनेपदी द्विवचनरूपं पचावहै वदतु
पच इति धातुः अस्ति अत्र उत्तमपुरुष द्विवचनं वहि इति अस्ति अत्र वहि इत्यस्य इकारस्य भागः इकारः अस्ति अतः एकारः भवति वहे इति भवति अनन्तरम् आड् उत्तमश्च इति सूत्रेण आकारः आगमः भवति प्रत्ययात् प्राक् अतः आवहै आवहै इति भवति अनन्तरं पचयोग अत्र धातुः अस्ति पच पचयोगः आवहै अत्र पचावहै इति भवति अकः सवर्णदीर्घः सूत्रं वा
अकः सवर्णदीर्घः
सन्धिकार्यं भूत्वा पचावहै इति भवति
उत्तमं पच् इति धातुः पच इति रूपं कथम् आयाति शप् योजनेन इत्युक्ते गणविकरणप्रत्ययस्य योजनेन धातु
समीपम् अङ्गं पच् योगः पच्छयोगः तिप् अस्ति अतः अत्र धातो सार्वधातुकप्रत्ययः अस्ति अतः धातोः सार्वधातुको प्रत्ययोः मध्ये कर्तरिसप् इति सूत्रेण सपः विधानं भवति अतः अत्र लसकुद्दीपे इति सूत्रेण सकारस्य इत्संज्ञा भूत्वा हलन्तम् इति सूत्रेण पकारस्य इत्संज्ञा भूत्वा सकारपकारयोः लोपो भवतः अवशिष्टभागरूपम् अस्ति आकृतिः अकारः एव पच्छयोगः अत्र वहि इत्यत्र वहे आवहे इति वयं दृष्टम् अस्माभिः दृष्टम् अतः पचावहे इति भवति रूपम्
उत्तमं पच् इति धातुः अस्ति शप् गणविकरणप्रत्ययस्य योजनेन तत्र पच इति अदन्तमङ्गं सिद्ध्यति पच इति अदन्तमङ्गं तस्मात् परम् आवहै इति सिद्धप्रत्ययः अस्ति पचयोगः आवहै द्वयोर्मध्ये संहितायाम् इत्यस्य अधिकारः अस्ति अतः सन्धिकार्यम् अकः सवर्णे दीर्घः इत्यनेन सन्धिकार्यं भूत्वा पचावहै पचावहि इति रूपसाधनवेलायाम् आडुत्तमस्य पिच्च इति सूत्रेण आट् आगमः भवति तत्र पित्वस्य प्राधान्यं नास्ति किमर्थं चेत् पच इति अदन्तमङ्गमस्ति अदन्तमङ्गमस्ति इति कारणतः आवहै इत्यस्मिन् प्रत्यये पित्वमस्ति चेदपि तत्र गुणकार्यं भवितुं तत्र अवसरः नास्ति किन्तु तनादिगणीयधातुषु तनादिगणीयधातुषु इत्युक्ते तन् धातोः प्रसङ्गे क्रूधातोः प्रसङ्गे आत्मनेपदीरूपं यदा वयं साधयितुम् इच्छामः क्रूधातुः उभयपदी खलु लट्टीरूपं कुरुते अस्ति लोट् रूपं करवावहै करवावहै इति रूपसाधनवेलायां तनादिकृण्भ्यः उः इति सूत्रेण तत्र उ विकरणप्रत्ययः आयाति क्रूधातुः तनादिगणे अष्टमगणे अस्ति तत्र आडुत्तमस्य पिच्च इति सूत्रेण तत्र न केवलम् आडागमः तत्र गुणकार्यमपि भवति क्रूधातुः तनादिगणे अस्ति इति कारणतः तनादिकृण्भ्यः उः इति सूत्रेण उ गणविकरणप्रत्ययः आयाति इत्यतः उ गणविकरणप्रत्ययं निमित्तीकृत्य प्रथमवारं गुणकार्यं भवति तेन कर् भवति कर् योगः उ करु इति रूपं सिद्ध्यति करु इति अदन्तमङ्गं नास्ति उकारान्तं तत्र अन्ते उकारः अस्ति इति कारणतः तस्मात् परम् आवहै इति प्रत्ययः अस्ति चेत् आवहै इति प्रत्यये पित्वम् अस्ति अतः तादृश वक्तुमिच्छति वा
अत्र करु इति भवति अत्र उकार उकार अपित् अस्ति वह इति अपित् अस्ति अतः उकारस्य स्थाने ओकारः भवति करो इति भवति अनन्तरम् ओकारस्य स्थाने यचोयवाग इति सन्धिकार्यं भूत्वा औ इति भवति अत्र करौ योगः आवगै करवावह इति भवति
उत्तमं किमर्थं वक्तुमिच्छामि इत्युक्ते आडुत्तमस्य पिच्च इति सूत्रेण न केवलम् आडागमः पित्वमपि अध्यारोपितं भवति तादृशपित् प्रत्ययं सार्वधातुकपित् प्रत्ययं निमित्तीकृत्य इगन्त अङ्गे गुणकार्यं भवति इत्युक्ते तादृशपित्वम् अङ्गे गुणकार्यं कारयति इति वक्तुमिच्छामि अतः एव करवावहै तनवावहै इति रूपाणि साधयितुं शक्नुमः तत्र करु इति इगन्तमङ्गं सिद्ध्यति तनु इति इगन्तमङ्गं सिद्ध्यति तत्र अन्ते इक् प्रत्याहारस्थवर्णः उकारः अस्ति करु तनु इति इगन्तमङ्गमस्ति इत्यतः आवहै इत्यस्मिन् प्रत्यये स्थितस्य पित्वस्य आधारेण गुणकार्यं भूत्वा करो भवति पश्चात् सन्धिकार्यं भूत्वा करवावहै तनवावहै इत्यादीनि रूपाणि साधयितुं शक्नुमः किन्तु पचावहै इत्यत्र तादृशी स्थितिः नास्ति पच इति अदन्तमङ्गमस्ति इगन्तं नास्ति इत्यतः तत्र पित्वेन गुणकार्यं न भवति इति वक्तुमिच्छामि नरसिंह हेग्डे महोदय भवान् वदतु महिङ् प्रसङ्गे पठित्वा वदतु
महिङ् प्रसङ्गे न इत्यस्य इत्संज्ञा लोपः च इ इति टि भागः तस्य स्थाने एकारः महे एकारस्य स्थाने ऐ आदेशः महै उत्तमपुरुषस्य आडागमः आयोगमहि आमहि इति लोट् प्रत्यय निष्पन्न प्रथमतया तत्र महिङ् इत्यत्र अकारस्य हलन्त्यमित्यनेन संज्ञा भवति तस्य लोप इत्यनेन लोपो भवति इदानीं महि इति अवशिष्यते अत्र अन्तिम अच्वर्णः अस्ति इ तस्य टि संज्ञा भवति अतः टित आत्मनेपदनां टेरे इत्यनेन तस्य एकार भवति अतः महे इति निष्पन्नं भवति इदानीम् इदानीम् एकारस्य स्थाने एतः इत्यनेन ऐ आदेशः भवति अतः महे इति भवति महे इति अनन्तरम् आडुत्तमस्य पिच्च इत्यनेन उत्तमपुरुषस्य आडागमः महि इति उत्तमपुरुषप्रत्यय इति कृत्वा अत्र आडागमस्य प्रसक्तिः आडुत्तमस्य पिच्च इत्यनेन आडागमः भूत्वा आयोग आडागम टित् अस्ति अतः अद्यन्तटकित इत्यनेन स्थानिनः आदौ आगच्छति अतः आयोगमहि आमहि इति नोट् प्रत्ययः निष्पन्नं भवति
उत्तमं पचामहै इति रूपं साधयितुं शक्नोति वा
हा पच इति अङ्गं पच इति अङ्गम् आमहि इति सिद्धप्रत्ययः अतः पच योगामहि अकसवर्णदीर्घ इत्यनेन दीर्घादेशः पचामहि भवति
महिङ् इत्यत्र ञकारस्य प्रयोजनं किम्
महिङ् इत्यत्र ज्ञकारस्य प्रयोजनं तत्र
प्रत्याहारनिर्माणं
प्रत्याहारनिर्माणम् अनन्तरं प्रत्याहारनिर्माणम् अनन्तरम् अपित्वम् अध्यारोपणम्
महोदय महिङ् इत्यत्र इत्संज्ञकवर्णः ञकारः अस्ति खलु इत्संज्ञकवर्णः ञकारः अस्ति तस्य ञकारस्य प्रयोजनं किम् इति पृष्टवती
तत्र
तङ् प्रत्याहारः तिङ् प्रत्याहारः द्वयोः निर्माणमेव तस्य ञकारस्य
गकारः अस्ति चेत् तत्र कित्वमपि आरोपितं भवति न निद्वत् भवति
न न न निद्वत् न भवति महोदय तत्र ञकारः इत्संज्ञकः अतः इत्संज्ञा भूत्वा अपगच्छति
अस्तु अस्तु केवलं प्रत्याहारनिर्माणं तङ् अनन्तरं तिङ्
तङ् तिङ् अनयोः प्रत्याहारयोः निर्माणार्थम् इत्संज्ञकञकारः योजितः महिङ् इत्यत्र इत्संज्ञकवर्णानां लोपकार्यानन्तरं महि इति अवशिष्यते तत्र टि भागः कः
अन्तिम इकारः टि भागः इ महि इत्यत्र अन्तिम इकारः अस्ति टि भागः महि इत्यत्र अचोन्त्यादि टि इत्यनेन इ इत्यस्य इकारः टि संज्ञा भवति
इ इत्यस्य टि संज्ञा भवति अचोन्त्यादि टि इति सूत्रेण किन्तु आद्यन्तवदे एकस्मिन् इति सूत्रेण किम् उच्यते इत्युक्ते एकस्मिन् शब्दे एकः एव अचुवर्णः अस्ति चेत् सः एव प्रथमः सः एव अन्तिमः
एकवचने भवति उत्तमपुरुषे एकवचने इति अस्ति तद् अद्यन्तौ एकस्मिन् इत्यनेन भवति
अत्र टितात्मनेपदानां टेरे इति सूत्रेण एकारादेशः भवति पश्चात् आमेतः इति सूत्रं प्रबाध्य एत ऐ इति सूत्रेण ऐ आदेशः उत्तमपुरुष एकवचनप्रसङ्गे आटश्च इति सूत्रस्य प्रसक्तिः अस्ति आटश्च इति सूत्रस्य कार्यमस्ति सन्धिकार्यमस्ति किन्तु अत्र आटश्च कार्यं किमर्थं नास्ति आमहै
अत्रापि अस्ति तत्र सन्धि भूत्वा ऐ इति भवति आ ऐ अस्ति वृद्धि भूत्वा ऐ ऐ एव भवति.
आचार्य प्रश्नः कः न अवगतं, प्रश्नः कः?
अत्र आटश्च सूत्रस्य प्रसक्तिः अस्ति वा?
नास्ति.
किमर्थं नास्ति वदतु.
प्रत्यक्ष आदिमवर्णः स्वरः नास्ति.
हा उत्तमम्.
हा अग्रे रुद्धिवर्ण आवश्यकः अस्ति खलु, रुद्धिव
अचीपरे, अचीपरे इति उक्तमस्ति. महोदय भवान् पठतु आटश्च सूत्रं पठतु इदानीम्.
आटश्च आडागमात् अचीपरे पूर्वप्रयोः वृद्धिरेकादेशो भवति. आट पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. एको एणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, वृद्धिरेचि इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः. एकः पूर्वप्रयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिस्य सूत्रम् आटः च अचि पूर्वप्रयोः एकः वृद्धिः संहितायाम्. आडागमात् अचीपरे प्रत्ययस्य आदिमवर्ण अच्वर्ण भवेत्, तत्र आटश्च इति कार्यं करोति. आडागमस्य अनन्तरं वृद्धि भूत्वा तत्र
इत्युक्ते यत्र यत्र आडागमः भवति आडागमस्य अनन्तरम् अचीपरे पूर्वपरयोः स्थाने वृद्धिसंज्ञकवर्णः एकादेशः भवति.
एकवचने भवति न, तदेव अहम् उक्तवान्. एकवचने आयोग अनन्तरम् ऐ ऐ भवति.
किमर्थम् आवहै इत्यत्र नास्ति, आमहै इत्यत्र आटश्च कार्यं नास्ति,
तत्र अचुवर्णः नास्ति इति कृत्वा.
उत्तमं. वकारः अचुवर्णः नास्ति, मकारः अचुवर्णः नास्ति इत्यतः आटस्य सूत्रस्य कार्यं न भवति. आडागमस्य अनन्तरम् अचीपरे पूर्वपरयोः स्थाने द्वयोः स्थाने यत्र यत्र वर्णानां नैकट्यम् अस्ति तदर्थमेव अत्र संहितायाम् इति अधिकारः अस्ति. संहितायाम् इति अधिकारसूत्रस्य परिधौ इदं सूत्रमस्ति. संहितायाम् इति कथनेन यत्र यत्र वर्णानां नैकट्यम् अस्ति, सामीप्यमस्ति, तत्र एव वर्णनिमित्तिकं कार्यं भवति. अपि च अनेन सूत्रेण उभयोः स्थाने वृद्धसंज्ञकवर्णः एकादेशः भवति. अपि च इतोपि अत्र किं वक्तव्यम्, अचीपरे इति उक्तमस्ति. इदं सूत्रम् अकः सवर्णे दीर्घः, आद्गुणः, वृद्धिरेचि एतेषां सर्वेषां सूत्राणां प्रसङ्गे अपवादसूत्रं भवति.
इत्युक्ते भगिनी अहं चिन्तयामि अत्र आट् इति अस्ति कथनेन तत्र यत्र यत्र आट् आगमः तत्रैव कार्यम् अस्ति. अहं चिन्तयामि आट् आगमे तत्र दीर्घ आकारः अस्ति, अतः अत्र यदा तत्र आयोग इ अस्ति यः प्रथम प्रत्ययः प्रथम उत्तमपुरुष एकवचने यः इकारः इट् इत्यनेन तत्र गुणः भवितुं शक्नोति, परन्तु सम्पाद्य तत्र आटश्च इत्यनेन कार्यं. तथैव तत्र द्वितीयप्रत्यये तत्र आट् तत्रापि आटागमः भवति, परन्तु तत्र इदानीं तत्र किमस्ति तत्र ऐकारः अस्ति तदपि अच्वर्णः, परन्तु तत्र वृद्धि यः वृद्धिरेचि इत्यनेन वृद्धिकार्यं भवति, परन्तु विशिष्टसूत्रमस्ति यदा तत्र आट् आगमः तत्र तु आटश्च इत्यनेनैव कार्यं, न तु वृद्धिरेचि इत्यनेन कार्यम्. आड् आगमस्य विषये वदति यत्र यत्र आड् आगमः तत्र अचि अस्ति चेत् तत्र गुणं प्रवाद्य अपि च वृद्धि प्रवाद्य तत्र पूर्वपरयोः वृद्धिः एव करणीयम्.
उत्तमम्. आडागमस्य अनन्तरं वृद्धिरेचि सूत्रं प्रबाध्य अस्य कार्यं भवति. गुणकार्यं प्रबाध्य अनेन सूत्रेण वृद्धिसंज्ञकवर्णः एकादेशः भवति. आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् इति आवहै आमहै इत्यत्र आटश्च कार्यं नास्ति. किमर्थमित्युक्ते तत्र अचिवर्णः नास्ति. आडागमस्य अनन्तरं वहै इत्यत्र वकारः, महै इत्यत्र मकारः, हल् वर्णद्वयमस्ति, अतः आटश्च कार्यं न भवति. आटः इति पञ्चम्यन्तम् अस्ति, आटः इति पञ्चम्यन्तमस्ति इति कारणतः परकार्यं भवति. अपि च आद्गुणः, अकः, सवर्णे दीर्घः, वृद्धिरेचि एतेषां सर्वेषाम् अपवादः इति वक्तुं शक्नुमः.
भगिनी किञ्चित् समीकरोमि, तत्र एकारः इकारः तु न तिष्ठति, तस्य स्थाने तत्र ऐकारादेशः भवति. तत्र प्रथमे तथा आत्मनेपदानां टेरे इत्यनेन एकारः, इकारस्य एकारः, तत्र टीभागः अस्ति इकारः, इकारस्य एकारः, आतः ऐ इत्यनेन ऐकारः. इदानीं तत्र आडागमः अस्ति, आयोग ऐ अस्ति चेत् वृद्धिरेचि इत्यस्य अपवादः आटश्च, सो एकम् एकस्थाने एव कार्यमस्ति आटश्च इत्यनेन
इत्युक्ते उत्तमपुरुष एकवचने एव आटश्च इति सूत्रस्य कार्यमस्ति किमर्थं चेत् तत्र आडुत्तमस्य पिच्च सूत्रेण आ इति आयाति पश्चात् एत ऐ इति सूत्रेण एकारस्य स्थाने ऐ आगतः अतः आयोगः ऐ इति स्थितिः अस्ति तत्र आटश्च इति सूत्रेण द्वयोः स्थाने उभयोः स्थाने ऐकारादेश वृद्धिसंज्ञकवर्णादेशः भवति इत्यतः उत्तमपुरुष एकवचनप्रत्ययः ऐ अस्ति पचयोगः ऐ इत्यत्र किं भवति पच् इति धातुः अस्ति पच इति अङ्गमस्ति ऐ इति सिद्धप्रत्ययः अस्ति उत्तमपुरुष एकवचनसिद्धप्रत्ययः ऐ अस्ति पचयोगः ऐ
तत्र तु वृद्धि रेचि इत्यनेन एव कार्यं चिन्तयामि
वृद्धिरेचि इति सूत्रेण एव तत्र कार्यं भवति पूर्वस्मिन् सोपाने इत्युक्ते यदा वयं सिद्धप्रत्ययस्य निर्माणं कर्तुम् इच्छामः ऐ इति उत्तमपुरुष एकवचन ऐ सिद्धप्रत्ययस्य निर्माणावसरे तत्र आडागमः अभवत् अतः आटश्च इति सूत्रेण वृद्धिसंज्ञकवर्णादेशः भवति इत्यतः ऐ इति सिद्धप्रत्ययस्य निर्माणं भवति पच इति अङ्गमस्ति पचयोगः ऐ इत्यत्र वृद्धिरेचि इति सूत्रेण वृद्धिसंज्ञकवर्णादेशः भवति इत्यतः पचै इति रूपं सिध्यति पच् धातोः लोट्लकार उत्तमपुरुष एकवचनरूपं पचै इति अस्ति इदानीम् एकवारं त्रीणि रूपाणि साधयामः सत्यभामा भगिनी भवती साधयतु पचै इति रूपं कथं साधनीयं
धातुः अस्ति पच् धातुः भुवादिगणीयधातुः अस्ति इति कारणात् तत्र विकरणप्रत्ययः शप् निरनुबन्धरूपमस्ति अकारः पच् योगः आ पच इति अङ्गम् अग्रे सिद्धप्रत्ययः अस्ति ऐकारः खलु तर्हि अकारस्य अनन्तरम् ऐकारः अस्ति इति कारणात् वृद्धिसन्देशे निमित्तमस्ति पचै इति अस्माकं सिद्धरूपं भवति
लोट्लकारे उत्तमपुरुषे एकवचन ऐ सिद्धप्रत्ययस्य निर्माणं कथं भवति
तदेव वक्तुमिच्छामि अत्र प्रथमं स्थित आत्मनेपदानां टेरे इत्यनेन ईकारस्य स्थाने एकारः आगच्छति पश्चात् अत्र भिन्नसूत्रं किमस्ति आत्तः आमेधः न कार्यं करोति भिन्नसूत्रं किमस्ति समाजस्य ऐ इति सूत्रेण इदानीम् एकादश स्थाने ऐकारादेशः भवति तदेव अत्र इदानीं सिद्धरूपं वर्तते इकारस्य स्थाने तर्हि ऐ इति एव सिद्धप्रत्ययः अत्र
सिद्धप्रत्ययः ऐ तथा आयति वा तत्र आडुत्तमस्य पिच्च इति सूत्रेण आडागमः अपि भवति खलु उत्तमपुरुषे तदपि वक्तव्यं खलु
आम् आडुत्तमस्य पिच्च इति सूत्रस्यापि प्रसक्तिः अस्ति अत्र
प्राप्तिः अपि अस्ति तत् सोपानमपि वक्तव्यम्
तर्हि लोट्लकारस्य विषये आडुत्तमस्य पिच्च इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य प्रत्ययस्य स्थाने आट् इति आगमः भवति अपि च तत् पित् अपि अस्ति तर्हि कुत्र आगच्छति इति चेत् आद्यन्त आडुत्तमस्य पिच्छा इति अस्ति खलु तर्हि टित् लकारस्य विषये अस्ति
अत्र टित् लकारस्य इति न वदामः टित् आगमः अस्ति इति कारणतः टित् आगमः प्रत्ययस्य आगमः प्रत्ययस्य आदौ आयाति टित् आगमाः आगमिनः आदौ आयान्ति इति वक्तव्यमस्ति अत्र आट् आगमः आडुत्तमस्य पिच्च सूत्रेण आट् आगमः प्रत्ययस्य आदौ आयाति इदानीं करोतु
लोट् क्षम्यताम् आट् इति प्रत्ययस्य आट् इति टित् अस्ति इति कारणात् आद्यन्तौ तकितौ इत्यनेन प्रत्ययस्य एव आगमः इति कारणात् तद् प्रत्ययस्य आदौ आगच्छति तर्हि इदानीम् आ योगः ऐ इति भवति खलु
ऐ इति रूपं कथम् आगतम् इत्युक्ते तत्र एत ऐ इति सूत्रेण तस्मात् पूर्वं टितात्मनेपदानां टेरे इति सूत्रेण टी भागस्य स्थाने एकारादेशः पश्चात् आमेतः सूत्रं प्रबाध्य एत ऐ इति सूत्रेण एकारस्य स्थाने ऐ आदेशः भवति आडुत्तमस्य पिच्छन आडागमः भवति आयोगः ऐ इति स्थितिः अस्ति इदानीं किं करणीयम् आयोगः ऐ
आयोगः ऐ इदानीम् अत्र सन्धिकार्यं भवति वा इति द्रष्टव्यम् इदानीं सन्देहनिमित्तमस्ति अस्ति तर्हि वृद्धिसन्धि आयोगः ऐ इति अस्ति आकारात् परे ऐकारः पूर्वपरयोः स्थाने वृद्धिः एकादश भवति वा अथवा आडश्च इति सूत्रस्य प्रसक्तिः अस्ति वा इति द्रष्टव्यं यतोहि तदपि अङ्गात् आचीपरे पूर्वपरयोः वृद्धिः एकादेशः भवति तर्हि कस्य सूत्रस्य प्रसक्तिः अस्ति अत्र आडश्च इति सूत्रमेव अत्र कार्यं करोति यतोहि अत्र
अत्र आड् आगमः भवति इति मुख्यविषयः इत्यतः आटश्च इति सूत्रेण एव कार्यं भवति अपि च आटश्च इति सूत्रम् अङ्गाधिकारे नास्ति संहितायाम् इत्यस्मिन् अधिकारे अस्ति तेन वर्णनिमित्तिकं कार्यं भवति अत्र वर्णानां नैकट्यम् अस्ति इत्यतः आयोगः ऐ इत्यत्र आडागमस्य अनन्तरम् अत्र ऐकारः अच्वर्णः परः अस्ति इत्यतः आटश्च सूत्रेण द्वयोः स्थाने उभयोः वर्णयोः स्थाने वृद्धिसंज्ञकवर्णादेशः भवति इति आटश्च सूत्रं वदति वदतु
आटश्च इति सूत्रेण यतोहि अत्र आट् आगमः यदा भवति तदानीमेव अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति तर्हि अन्य वृद्धिरेचि इत्यस्य यत्र यत्र आकारः आगच्छति परे अश्वर्णः अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः अस्ति आटश्च इत्यस्य कार्यक्षेत्रं लघु अस्ति तस्य एव अत्र प्रसक्तिः अतः आयोगः ऐ इत्यत्र पूर्वपरयोः स्थाने वृद्धिवर्णः एकादेशः भवति तर्हि आयोगः ऐ इत्यत्र ऐकारादेशः भवति इति कृत्वा इदानीं प्रत्ययः ऐ इति निष्पन्नः अस्ति
पचयोगः ऐ
पचयोगः ऐ अत्र पुनः अकारस्य अनन्तरम् ऐकारः अस्ति अत्र तु सामान्यसन्धिसूत्रमेव कार्यं करोति अकारात् परे ऐकारः अस्ति आडागमः किमपि नास्ति अत्र अतः अत्र इदानीम् अवृद्धिरेचि इत्यनेन पचै इति रूपम्
उत्तमपुरुषे एकवचनरूपं पचै इति अस्ति साधु भगिनी बहु सम्यक् मनीषा भगिनी भवती कर्तुमिच्छति वा करवै इति रूपम् अस्ति क्रूधातुः तनादिगणे अस्ति क्रूधातुः उभयपदी धातुः अस्ति कुरुते इति लटिरूपम् अस्ति करवै इति उत्तमपुरुषे एकवचनरूपम् अस्ति
क्रूधातु करवै अस्ति करवै कस्य अस्ति तनादिगणस्य वा वदति वा
तनादिगणे अस्ति अष्टमगणे अस्ति तनादिकृण्भ्यः उ इति सूत्रेण उ गणविकरणप्रत्ययः तनादिगणे
तर्हि अत्र उ इति प्रत्ययः तु अर्धधातुप्रत्ययः अस्ति तेन अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र अङ्गस्य गुणः भवति तर्हि अत्र क्रू मध्ये ककारुतरवर्ती ऋकारः अस्ति तस्य गुण अर् भवति अत्र औरण्ड्रपरः अस्य साहाय्येन तर्हि अत्र कर् इति भवति इदानीम्
उत्तमम् उ इति अर्धधातुकगणविकरणप्रत्ययः उ गणविकरणप्रत्ययं निमित्तीकृत्य क्रू इति धातुरूपी अङ्गे सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा कर् भवति वदतु
तर्हि इदानीं कर्योग किमस्ति आत्मनेपदी
कर्योगः उ करु
हा कर्योग उ इदानीं करु इति भवति हा
करु इति
करु इति इदानीम् अङ्गम् अस्ति अस्माकम् अङ्गम् अनन्तरं किं करणीयमस्ति कस्य रूपम् आवश्यकमस्ति
करु इति अङ्गमस्ति उत्तमपुरुषे एकवचनप्रत्ययः ऐ अस्ति
हा करुयोग ऐ अस्ति इदानीम् ऐ इति सिद्धतिं प्रत्ययः अस्ति सिद्धतिं प्रत्ययः अस्ति करुयोग ऐ तर्हि अत्र अनदन्त अङ्गमस्ति इदानीम् अदन्तम् अङ्गं नास्ति उकारः अस्ति अत्र तर्हि उकार अनन्तरम् ऐ इति अस्ति अनदन्तम् अङ्गम् अस्ति ऐ इति किं वदामः कीदृशप्रत्ययः अस्ति तर्हि पित् प्रत्ययः अस्ति आचार्ये
किमर्थं पित् प्रत्ययः
अत्र अडुत्तमस्य पिच्च इत्यनेन
अस्मिन् प्रत्यये पित्वम् अस्ति वस्तुतः इट् इति प्रत्ययः मूले अपि तस्ति किन्तु अडुत्तमस्य पिच्च इति सूत्रेण अत्र पित्वम् अध्यारोपितं भवति इत्यतः ऐ इत्यस्मिन् प्रत्यये पित्वम् अस्ति इत्युक्ते करु इति अङ्गम् अस्ति करु इति अङ्गात् परम् ऐ इति पित् प्रत्ययः अस्ति वदतु
धातुकयोः इत्यनेन अत्र करु इति अङ्गमस्ति, तर्हि अङ्गस्य गुणः भवति. तर्हि उकार उत्तरवर्ती उकारः अस्ति, तर्हि उकारस्य गुण ओकारः भवति. तर्हि इदानीं करो योग ऐ इति भवति. करो इति इदानीम् अङ्गमस्ति, ऐ इति अस्ति. तर्हि करो योग ऐ अत्र संहितायाम् अस्य अधिकारः अस्ति. तर्हि एचो यवायावः इति सूत्रेण ओकारस्य स्थाने अत्र ऐ अव आदेशः भवति.
अवादेशः भवति करौ योगः ऐ,
अवादेश अधिक ऐ, तर्हि कर वै इति रूपं भवति.
उत्तमं. तत्र केवलं वर्णमेलनम् अन्तिमसोपाने केवलं वर्णमेलनं भूत्वा कर वै इति रूपं भवति. अत्र तु सिद्धतिङ्प्रत्ययं निमित्तीकृत्य ऐ इति सिद्धतिङ्प्रत्ययं निमित्तीकृत्य करु इति धातुविकरणयोः मेलनेन यत् संयोजितं रूपं करु इति अङ्गं यत् सिद्ध्यति तस्मिन् अङ्गे इगन्त अङ्गे करु इति अङ्गे गुणकार्यं भवति. ऐ इत्यस्मिन् प्रत्यये पित्वमस्ति इति कारणतः ऐ इति सिद्धप्रत्ययं निमित्तीकृत्य द्वितीयवारम् अत्र गुणकार्यम् अभवत् खलु.
द्विवारं भवति अत्र गुण.
इत्युक्ते पूर्वं गुणकार्यम् ऊ इति गणविकरणप्रत्ययं निमित्तीकृत्य सार्वधातुकार्धधातुकयोः इति सूत्रेण क्रु इति धातुरूपी अङ्गे गुणकार्यं भवति. द्वितीयवारम् अत्र सिद्धप्रत्ययं निमित्तीकृत्य ऐ इति सिद्धप्रत्ययं निमित्तीकृत्य गुणकार्यं करु इति अङ्गे भवति. प्रत्ययस्य पित्वात् गुणकार्यम्, अतः एव करवै इति रूपं सिद्ध्यति. किन्तु पच इत्यत्र पच इति अङ्गमस्ति, अदन्तम् अङ्गमस्ति इत्यतः ऐ इति सिद्धप्रत्यये पित्वम् अस्ति चेदपि पच इति इगन्तं नास्ति इत्यतः तत्र गुणकार्यस्य प्रसक्तिः नास्ति. तत्र केवलं पचै इति रूपमेव सिद्ध्यति.
पचै मध्ये अपि आचार्य अत्र वृद्धिरेचि एव न, अत्र किमर्थम् अत्र वृद्धिरेचि एव न,
वृद्धिरेचि कार्यं. बहु सम्यक्. इदानीं सुन्दरमहोदय भवान् वक्तुमिच्छति वा पचामहै इति रूपं कथं साधनीयम्?
यदा तत्र करुयोग ऐ अस्ति, करुयोग ऐ अस्ति, तत्र अचिष्णु धातु ब्रुवां इयङ् वङ् कार्यं न करोति. इत्युक्ते तत्र यः धातु अस्ति तत्र अङ्गस्य अकारः अस्ति. धातु इत्युक्ते धातु इकारस्य उकारस्य एव
ओकारस्ति न महोदय, तर्हि ओकारस्य कथं भवति इयङ्गुवङ्गादेश?
तत्र सार्वधातुकार्धधातुकयोः अपि च अचिष्णु धातु ब्रुवाम् इयङ्गुवङ्ग् इति सूत्रद्वयोः तत्र प्रसक्तिः एकत्र अस्ति वा नास्ति इत्युक्ते श्नु श्नु इति सेपरेट्लि दत्तमस्ति, धातु इति सेपरेट्लि दत्तमस्ति. धातुरूपी इकारस्य उकारस्य एव आदेशः वा? अत्र तु कुरु इति धातुरूपी उकारः नास्ति, अतः तेन न कार्यम्.
अचिष्णु धातु ब्रुवाम इयङ् वङ्गौ इत्यस्मिन् सूत्रे दलत्रयम् अस्ति. इकारान्त उकारान्त धातुरूपी अङ्गमस्ति चेत् कार्यं, श्नु प्रत्ययान्तम् अङ्गमस्ति चेत् कार्यं, भ्रू प्रातिपदिकमस्ति चेत् कार्यं. भगिनी एव उत्तरं दत्तवती, तेन सूत्राणि कार्यम् अत्र न भवति. सार्वधातुक अर्थधातुकयोः इत्यनेन एव गुणकार्यम्. इदानीं सुन्दरमहोदय, वृत् इति धातुः अस्ति, वृत् धातोः रूपं वर्तते अस्ति, वृत् धातुः अपि भुवादिगणे अस्ति. वृत् धातुतः वर्तते इति लटिरूपम् अस्ति, किन्तु वर्तामहै इति रूपं साधनीयं. वर्तामहै
ओके, वृत् वृत् धातोः वर्तते इति भवति. अत्र वृत् योगे अत्र गुणकार्यं भूत्वा वर्त् इति भवति. वृत् योगे महिङ् महिङ् इति सूत्रेण इत्संज्ञा अत्र महिङ् इत्यस्य ङकारस्य इत्संज्ञा लोपः भवति. इ इति टि भागः, तस्य स्थाने एकारः भवति.
केन सूत्रेण एकारः भवति?
पदानां तेरे इति सूत्रेण एकारः भवति.
तत्र टी भागः कः?
टी भागः इकारः, इकारः एव टी भागः. टी भागः, तस्य स्थाने एकारः भवति. तदनन्तरम् एकारस्य स्थाने, एकारस्य स्थाने ऐकारः, ऐकारादेशः भवति.
किमर्थम्?
एकारस्य स्थाने ऐ, एतः ऐ इति सूत्रेण, एतः ऐ इति सूत्रेण एकारस्य स्थाने ऐ इति आदेशः भवति.
आम् एतः सूत्रं किमर्थं कार्यं न करोति? आम् एतः, एतः स्थाने आम् आदेशः भवति स्म, किन्तु अत्र एत ऐ इति विशेषसूत्रेण अपवादसूत्रेण आमेतः इति सूत्रं बाधित्वा
आमेतः इति सूत्रं प्रबाद्य एकारस्य स्थाने एतः ऐ इति सूत्रेण ऐकारादेशः भवति तत्र महै इति आट् आगमः आट् आगमः तिथ्य इति सूत्रेण आट् आगमः भवति सो आमहै इति अन्तिमं रूपं सिद्ध्यति तत्र
आडुत्तमस्य पिच्च सूत्रेण आडागमः भवति किन्तु अत्र आटश्च कार्यं किमर्थं नास्ति
आटश्च कार्यम् अत्र वक मकारः अचिपरे भवति आटश्च इति सूत्रम् अचिपरे भवति आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् इति सूत्रेण अचिपरे एव आटश्च इति इत्यस्य कार्यं भवति परन्तु अत्र मकारः अच्वर्णः नास्ति इति कारणतः तत्र आटश्च इत्यस्य कार्यं न भवति
अत्र आडागमः अभवत् आडागमस्य अनन्तरम् अत्र मकारः अच्वर्णः नास्ति इत्यतः केवलं वर्णमेलनेन आयोगः महै आमहै इति उत्तमपुरुष बहुवचनप्रत्ययः इदानीं करोतु रूपं साधयतु
अत्र वृत् इति धातोः वृत् इति धातोः अत्र आडागमस्य पिच्च इति सूत्रेण पित् अत्र आरोपितं पित् आरोपितम् इति कारणतः अत्र गुणकार्यं भवति पित् इति कारणस्य सार्वधातुक अर्धधातुकयोः इति सूत्रेण
न इतोपि स्पष्टतया वक्तव्यं वर्तामहै इति रूपम् अस्ति वृत् इति धातुः अस्ति वृत् धातौ उपधायां रुकारः अस्ति वृत् धातुः भुवादिगणे अस्ति इति कारणतः इदानीम् अङ्गं साधयतु इदानीं पर्यन्तं भवान् सिद्धप्रत्ययं साधितवान् अन्यस्मिन् प्रकोष्ठे अङ्गं साधयतु इत्युक्ते धातुविकरणयोः संयोजितं रूपं साधयतु
वृत् वृत्तियोगे अत्र पित् आगमः अस्ति वृत्तियोगे शप् योगे तिप् इति भवति वृत्तियोगे शप् इत्यस्य कारणतः अत्र गुणः भूत्वा शकारपकारयोः लोपः भवति अत्र अकारः एव अवशिष्यते तत्र गुणः भूत्वा वृत् इति पुगन्तलघुपदस्य च इति सूत्रेण उपधायां स्थितस्य इक्वर्णस्य लघु इक्वर्णस्य गुणः भूत्वा वर्त् भवति अत्र उरण्परः इत्यस्य कार्यमपि भवति वर्त् वृत् इति गुणः भूत्वा वर्त् इति भवति वर्त् वर्त् इति वर्त् योगे वर्त इति अङ्गं भवति अधुना वर्त योगे आमहै इति वर्णमेलनेन वर्तामहै इति अन्तिमं रूपं सिद्ध्यति
उत्तमं महोदय वृत् धातोः परं शप् गणविकरणप्रत्ययः किमर्थमायाति
गणप्रत्ययः अत्र
गणविकरणप्रत्ययः शप् किमर्थम् आयाति
शप् अत्र कर्तरि शप् इति सूत्रेण गणविकरणप्रत्ययः शप् आयाति अत्र
महिङ् इति प्रत्ययः कर्त्रर्थक सार्वधातुकप्रत्ययः महिङ् इति कर्त्रर्थक सार्वधातुकप्रत्ययः अस्ति धातोः परं कर्त्रर्थक सार्वधातुक महिङ् प्रत्ययः अस्ति इत्यतः
कर्तरि शप् इति सूत्रेण शप् विकरणप्रत्ययः आयाति
उत्तमम्
अनन्तरं वर्त् योगे शप् इति भवति सो वर्त् वृत् वर्त् भवति गुणः भूत्वा वर्त् भवति पुगन्तलघुपदस्य च इति सूत्रेण वर्त् योगे वर्त इति अङ्गं सिद्ध्यति तदनन्तरं वर्त योगे आमहै वर्तामहै इति अन्तिमं रूपं सिद्ध्यति
वर्त इति उक्तवान्, वर्त इति अदन्तमङ्गमस्ति, वृत्तधातुः भुवादिगणे अस्ति, आत्मनेपदी धातुः अस्ति, भुवादिगणे अस्ति इति कारणतः शप् गणविकरणप्रत्ययः आगतः इत्यतः शपं निमित्तीकृत्य वृत् इति धातुरूपी अङ्गे गुणकार्यं भूत्वा वर्त भवति, वर्त योगः अवर्त इति भवति, वर्त योगः आमहै इत्यत्र सन्धिकार्यं करोतु.
वर्त योगे आमहै अत्र अत्र एतत् सन्धिः एव भवति किल,
सवर्णदीर्घसन्धिः,
सन्धिः सवर्णदीर्घसन्धिः वर्त योगे आमहै वर्तामहै इत्येव भवति, वर्त योगे आमहै वर्तामहै इति अन्तिमं भूतम्.
साधु महोदय, बहु सम्यक्. वीणा भगिनी, भवती साधयितुमिच्छति वा वर्तावहै इति रूपम्?
अत्रापि वर्त इति अस्माकम् अङ्गं भवति अस्ति, वर्त इति वहै अत्र वर्त इति कर्तरि शप् इति आगत्य अ शप् विधा शप् विकरणप्रत्ययः अ आगच्छति, अ शप् विकरण यदा आगच्छति तत्र इग वर्त इति इगन्तम् अङ्गम् अस्ति, ह्रस्व ऋकारः अस्ति, तस्य गुणः भवति वर्त इति भवति. वर्तयोग इदानीं वहै इ वहि इ तितात्मनेपदानां टेरे इति सूत्रेण ए भवति, तदनन्तरम् आड् उत्तमस्य पिच इति कारणेन वृद्धिः भवति, वहै भवति.
आड् उत्तमस्य पिच इति सूत्रेण आड् आगमः,
आड् आगमः भवति. आमेतः इति आटस् आमेतः भवति वा वहि वहि ऐ ऐ आड् उत्तमस्य पिच इति कारणेन अत्र वृद्धिः भवति.
आडुत्तमस्य पिच्च सूत्रेण आट् आगमः भवति, पित्वम् अध्यारोपितं भवति. तत्र वहि इति प्रत्यये स्थितात्मनेपदानां टेरे इति सूत्रेण एकारादेशः भवति, पश्चात् तत्र आमेतः सूत्रं प्रबाध्य एत ऐ इति सूत्रेण
एकारस्य स्थाने ऐकारः आगच्छति, वहै भवति. इदानीं वर्तया वहै, वर्तया वहै इति रूपं निष्पद्यते उत्तमपुरुषे द्विवचने.
इतोपि समीचीनतया वक्तव्यं. मनीषा भगिनी, वर्तावहै इति रूपं साधयतु. वर्तावहै
तर्हि वृतधातु प्रथमगणस्य अस्ति इति अहं मन्ये.
भुवादिगणे
वृतधातु प्रथमगणस्य भुवादिगणस्य धातुः अस्ति, तर्हि वृत्त योग यदि तिङ् प्रत्ययः आयाति तर्हि किमस्ति कर्तृत्वे सर्वधातुप्रत्ययः अस्ति, तेन अत्र कर्तरिशप् आयाति विकरणप्रत्ययः, तर्हि वृत्त योगशप् योग लोट्लकारस्य इदानीम् अस्माकं विवक्षा अस्ति, तर्हि लोट्लकारस्य प्रत्ययः अत्र आयाति, तर्हि वृत्त योगशप् अत्र शप् इति प्रत्ययः सर्वधातुप्रत्ययः अस्ति, पित् प्रत्ययः अस्ति, तेन अत्र अङ्गस्य गुणः भवति. वृत्त अस्ति धातु क्षम्यतां, तर्हि अत्र पुगन्तलघुपदस्य च इत्यनेन अत्र सर्वधातुक अर्धधातुकयोः इति सूत्रं न आयाति, क्षम्यताम्, अत्र पुगन्तलघुपदस्य इति सूत्रेण अङ्ग उपधायाः लघु एकवर्णः अस्ति तस्य गुणः भवति, तर्हि वृत्तमध्ये वकार उत्तरवर्ती विकारः अस्ति तस्य गुणः भवति, अर् इति भवति गुणः उरण्परः इति सूत्रस्य साहाय्येन, तर्हि वर्त इति भवति वर्त योगशप् मध्ये अनुबन्धलोपानन्तरम् अ एव अवशिष्यते, वर्त योग अ योग लोट्लकारस्य प्रत्ययः, तर्हि वर्त अत्र वर्णमेलनं भवति केवलं वर्त योगश अ अत्र वर्णमेलनं वर्त इदानीम् अस्माकम् अङ्गमस्ति, तर्हि अर्थ वर्त योग इदानीं लोट्लकारस्य किं प्रत्ययः योजयामि आचार्य?
द्विवचनप्रत्ययः आवहै इत्युक्ते लोट्लकार उत्तमपुरुष द्विवचनप्रत्ययः.
हा लोट्लकार उत्तम पुरुष द्विवचन, तर्हि वर्त वर्त योग आवहे इति इदानीं सिद्धतिं प्रत्यय स्वीकरोमि साक्षात् आचार्ये?
स्वीकरोतु, नो चेत् साधयतु.
तर्हि आवहे इति इदानीम् अस्माकं सिद्धतिं प्रत्ययः अस्ति, किन्तु तस्मात् पूर्वं मूलप्रत्ययः अस्ति वहि इति मूलप्रत्ययः अस्ति, तर्हि वहि मूलप्रत्ययः अस्ति वहि. हा वहि मध्ये यत् वहि मध्ये यत् अचोन्त्यदिति इत्यनेन अत्र अन्तिम इकारः अस्ति तस्य टि संज्ञा भवति, आत्मनेपदानां टेरि इत्यनेन इकारस्य स्थाने एकारः भवति, तर्हि एकारस्य स्थाने इदानीम् आमितः इति सूत्रेण न आमितः इति न एतः ए एत ए ऐ इति सूत्रेण एकारस्य स्थाने अत्र ऐ इति आदेशः भवति
इत्युक्ते तस्यां दशायाम् आमेतः इति सूत्रं बाधित्वा एत ऐ इति अपवादसूत्रेण एकारस्य स्थाने ऐ आदेशः भवति वदतु
आमां तर्हि आमेतसूत्रं प्रबाध्य अत्र एत ऐ इति सूत्रेण एकारस्य स्थाने ऐकारः आदेशः भवति तथा च आडुत्तमस्य पिच्च इत्यनेन अत्र आट् इति आगमः अपि भवति तर्हि आट् इति आगमः आट् अटित् अस्ति तेन अत्र प्रत्ययात् प्राक् आयाति तर्हि आट् योग अत्र ऐ इति अस्ति आदेशः सम्यक् नाचार्य
द्विवचनप्रत्ययः साधनीयः आवहै इति साधनीयं
हा द्विवचनं करोमि हा आवहै अस्ति खलु हा तर्हि ऐ इति वहि मध्ये इदानीं हकारोत्तरवर्ती ऐ इति आयाति इकारस्य स्थाने ऐकार भूत्वा आमेत एतः एत इति सूत्रेण ऐ एत ऐ इति सूत्रेण तर्हि आ इति आग इदानीम् आगमः भवति आट् इति आगमः प्रत्ययात् प्राक् आयाति अनुबन्धलोपानन्तरम् आ एव अवशिष्यते तर्हि आयोग वहै आवहै इति इदानीं सिद्धतिङ् प्रत्ययः अस्ति तर्हि अस्माकं अङ्गमस्ति वृत्त अङ्गमस्ति इदानीम् आवहै इति
अत्र
क्षम्यतां वर्तयोगः आवहै तर्हि अत्र वर्तयोगः वर्तयोग आवहे अत्र संहितायाम् अस्य अधिकारेण केवलम् अकसवर्णदीर्घ इति सूत्रमायाति तेन पूर्वपरयोः स्थाने सवर्णदीर्घादेशः भवति तर्हि वर्ता वहे वेलनं कृत्वा भवति
बहु सम्यक् तथा रूपं साधनीयम् आटश्च प्रसङ्गे समीचीनतया वक्तव्यं नीलं भगिनी कृपया वदतु
इत्युक्ते भगिनी यथा अत्र आटागमः भवति उत्तमपुरुषे लोट् लकारे आटागमः भवति तथैव एतस्य आटश्च इति सूत्रस्य प्रसक्तिः यदा तत्र लुङ् लङ् लृङ्षु अट् उदात्तः इत्यनेन यदा अटागमः भवति अपि च आडजादीनां
भवती श्रुतवती वा आडजादीनां सूत्रेण किं भवति
तत्र लुङ् लङ् लृङ्षु अजादीनां धातूनां तत्र आडागमः भवति
अजादि अङ्गम् इत्युक्ते अजादिधातुः अजादिधातुः अस्ति चेत् लङ् लकारप्रसङ्गे लुङ् लङ् लृङ्षु अडुदात्तः इति सूत्रेण अडागमः भवति इत्युक्ते अट् आगमः भवति लुङ् लङ् लृङ्क्षु अट् आगमः इति वयं पठितवन्तः तदर्थमेव भूधातोः लङ् लकाररूपम् अभवत् किन्तु भूधातुः अजादिधातुः नास्ति हलादिधातुः अस्ति किन्तु केचन धातवः अजादयः सन्ति अजादिधातुषु अजादि अङ्गमस्ति चेत् अजादि अङ्गेषु लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रं बाधित्वा आट् अजादीनाम् इति सूत्रेण आडागमः भवति न तु अडागमः साधारणतया लङ्लकारप्रसङ्गे अडागमः भवति किन्तु अजादिधातुषु आटागमः भवति आडजादीनाम् इति सूत्रेण तत्सूत्रं विशेषसूत्रम् अजादिधातुषु अजादि अङ्गेषु लङ्लकारप्रसङ्गे तदर्थमेव ईक्ष धातुः अस्ति चेत् ऐक्षत इति रूपं सिद्ध्यति तत्र आटश्च इति सूत्रस्य कार्यमपि भवति इत्युक्ते आडजादीनाम् इति सूत्रेण तत्र आटागमः भवति आटागमस्य अनन्तरम् आटश्च सूत्रेण वृद्धिसंज्ञकवर्णादेशः भवति ईक्ष धातुः अजादिधातुः ईकारः अच् वर्णः अतः तत्र लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रं प्रबाध्य आडजादीनाम् इति सूत्रेण आटागमः भूत्वा आटागमस्य अनन्तरम् आटश्च सूत्रेण वृद्धिसंज्ञकवर्णादेशः भवति इत्यतः ईक्षधातोः लङ्लकाररूपम् ऐक्षत इति भवति तत्र आटश्च कार्यम् अस्ति भवती किं वक्तुमिच्छति वदतु
तदेव तदेव वक्तुमिच्छामि यत्र यत्र आटागमः अस्ति यथा तत्र अपि च अत्र उत्तमपुरुषे लोट्लकारे तत्र एव आटश्च सूत्रेण कार्यम् अन्यत्र कुत्रापि नास्ति यत्र यत्र आडागमः तत्र एव अचिपरे वृद्धिः भवति तत्रापि वृद्धिः भवति अत्रापि वृद्धिः भवति
उत्तमम् आडागमस्य अनन्तरमेव आटश्च कार्यं भवति आडुत्तमस्य पिच्च इति सूत्रस्य अनन्तरं तत्र आडागमः अभवति इत्यतः तत्र आटश्च सूत्रेण लोट्लकार उत्तमपुरुष एकवचनप्रत्ययस्य प्रसङ्गे तत्र ऐ इति प्रत्ययस्य रूपनिर्माणार्थं तत्र आटश्च सूत्रेण कार्यं भवति एवमेव यथा भगिनी उक्तवती आडजादीनाम् इति सूत्रेण अजादिधातुषु लङ्लकारप्रसङ्गे आट् आगमः भवति न तु अड् आगमः वस्तुतः लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण अडागमः भवति लङ्लकारे किन्तु अजादिधातुषु आट् आगमः भवति तत्र आटस्य सूत्रकार्यम् आयाति एतत् सर्वम् अग्रे आयास्यति चिन्ता मास्तु आडागमस्य अनन्तरमेव आटश्च प्रसक्तिः अस्ति पूर्वपरयोः उभयोः स्थाने वृद्धिसंज्ञकवर्णादेशः भवति आटः इति पञ्चम्यन्तमस्ति पञ्चम्यन्तमस्ति इत्यतः परकार्यं भवति संहितायाम् इत्यस्मिन् अधिकारे अस्ति अङ्गाधिकारे नास्ति आटश्च सूत्रस्य कार्यम् अङ्गकार्यं नास्ति केवलं वर्णनिमित्तिकं कार्यं वदतु
अपि च भगिनी यथा अत्र अस्माभिः तत्र लोट् लकारस्य उत्तमपुरुषस्य तत्र सिद्धतिङ्प्रत्ययानां तत्र सिद्धिः कृतं सो ताम् इताम् अन्तां स्व इथां द्वम् ऐ आवहै आमहै इति सिद्धतिङ्प्रत्ययाः तथैव तत्र एते तु कर्तरिप्रयोगे अस्ति भावकर्मणोः तत्र यथा तत्र सार्वद् एतत् लोट् लकारः सार्वधातुकलकारः अतः तत्र सार्वधातुके यक् इत्यनेन तत्र भावे प्रयोगे कर्मणि प्रयोगे केवलम् अस्माभिः तत्र शप् स्थाने शत् शप् शप् न योजयितुं शक्नुमः तत्र यक् योजनीयं सो परन्तु ये सिद्धितिङ्प्रत्ययः तु समाना एव ताम् इतामन्ताम्
भावकर्मणोः इति सूत्रेण तत्र आत्मनेपदसंज्ञकप्रत्ययाः आयन्ति खलु कर्मणि प्रयोगे भावे प्रयोगे वदतु
अतः तत्र केवलं गुणकार्यं न भवति किमर्थं चेत् यक् इति प्रत्ययः कित् अस्ति सो तत्र या इति भागः तत्रापि अदन्ताङ्गमं भवति या इति अकारः अपि अस्ति सो केवलं वृद्धिकार्यं न भवति वृत्त्या इति अङ्गं भवति भावे प्रयोगे कर्मणि प्रयोगे अनन्तरं तत्र सिद्धितिङ्प्रत्ययः तु समाना एव ताम् इतामन्तां स्व इथां द्वम् ऐ आवहै केवलं तत्र योजनं करणीयं तदेव तत्र
भावे प्रयोगे कर्मणि प्रयोगे सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विहितः भवति तत्र आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति भावकर्मणोः इति सूत्रेण भावे प्रयोगे कर्मणि प्रयोगे आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति वृत्त्यावहै इति रूपं सिद्ध्यति वृत् धातुः अस्ति चेत्
आचार्ये अत्र एका शङ्का अस्ति मम यदा यक् प्रत्ययः कर्मर्थे अस्ति तर्हि अत्र तु तिङ्प्रत्ययाः तु आयन्ति ते प्रत्ययः तु कर्तृर्थे एव अस्ति कर्तृर्थे यदि अस्ति तिङ्प्रत्ययाः सर्वे कर्तृर्थे सन्ति यदा तदा कर्तरि शप् आयाति किन्तु यदा कर्मणि कृते यदि यक् प्रत्ययः आयाति तत्तु कर्मर्थे अस्ति तर्हि कर्मर्थे कदा आयाति यदा अग्रे इति मम शङ्कः अहं सम्यक् न जानामि अहं प्रश्नं पृच्छामि यत् यक् प्रत्ययः तु कर्मर्थे अस्ति तर्हि अग्रे तिङ्प्रत्ययाः अपि कर्मर्थे आवश्यकः वा एतत् अस्माकं कर्तृत्वे एव अस्ति तेषामेव कार्यं तेषामेव साहाय्येन कार्यं भवति
अत्र सार्वधातुके इति उक्तमस्ति इत्युक्ते सार्वधातुकलकारेषु इत्युक्ते लट् लोट् लङ् विधिलिङ् चतुर्षु लकारेषु आत्मनेपदप्रत्ययानां रूपाणि यादृशरीत्या वयं साधयामः तत्रापि सार्वधातुकलकारेषु कर्मणि प्रयोगे अपि प्रक्रिया समाना अस्ति आत्मनेपदीधातूनां प्रसङ्गे सिद्धप्रत्ययानां निर्माणावसरे यादृशानि कार्याणि भवन्ति तादृशानि कार्याणि कर्मणि प्रयोगे रूपं साधयितुमिच्छामश्चेदपि तत्रापि प्रक्रिया समाना भवति
सिद्धतिङ्प्रत्ययाः समानाः तर्हि य प्रत्यये तर्हि अदन्त अदन्त अस्ति अङ्गं तर्हि अदन्त अदन्त लकाराणां या प्रक्रिया तावत् सर्व भवति सर्वत्र
वृत्तधातोः कर्तरिरूपं वर्तते अस्ति आत्मनेपदिरूपम् अस्ति किन्तु पठ्धातोः कर्मणि रूपं किमस्ति पठ्यते अस्ति पठ्धातोः कर्मणि लट् रूपं पठ्यते अस्ति अपि च लोट् रूपं पठ्यताम् अस्ति तत्र रूपाणि आत्मनेपदिवत् भवन्ति भावकर्मणोः इति सूत्रेण तत्र आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति इत्यर्थः प्रक्रियासाम्यं वर्तते इति मम अवगमनं नीलं भगिनी भवती वदतु
इत्युक्ते भगिनी तत्र प्रथमसूत्रमस्ति यथा भवती उक्तवती भावकर्मणोः तस्य अनन्तरम् अस्ति साक्षात् अनन्तरं सूत्रमस्ति सार्वधातुके यत् यक् भावकर्मणोः इत्यनेन भावकर्मणोः पूर्वे तत्र अहं चिन्तयामि आत्मनेपदं कुत्रचित् पूर्वसूत्रात् तत्र अनुवृत्तिः भवति सो भावकर्मणोः धातोः अनन्तरं तत्र केवलम् आत्मनेपदी प्रत्ययः एव योजनीयम् इति तत्र अर्थः भवति अपि च अनन्तरं तत्र सार्वधातुके यक्
सो सार्वधातुके यक् इति सूत्रे भावकर्मणोः इति सम्पूर्णसूत्रस्य अनुवृत्तिः अस्ति. सो सार्वधातुके प्रत्यये परे तत्र धातोः कर्मणि भावकर्मणोः यक् इति प्रत्ययः विधीयते. सो तत्र यक् प्रत्ययस्य विधानं भवति, विधिः अस्ति. अतः तत्र अनन्तरं तत्र सूत्रे साक्षात् उक्तं कर्तरी शप्. सो कर्तरी प्रयोगे किं करणीयं? कर्तरी प्रयोगे सार्वधातुके प्रत्यये परे शप् योजनीयम्.
आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति कर्मणि प्रयोगे, भावे प्रयोगे इति मम अवगमनं. तस्मिन् प्रसङ्गे अग्रे आयस् इति एव. अग्रे लङ्लकारप्रसङ्गे दत्तमस्ति आत्मनेपदे लङ्लकारस्य तिङ्प्रत्ययसिद्धिः इति दत्तमस्ति. तस्मिन् प्रसङ्गे किञ्चित् चिन्तनं कुर्वन्तु. अग्रिमे सप्ताहे तस्मिन् विषये चर्चा भविष्यति. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.